સુતને શ્રી કૃષ્ણ જાણી એમ સ્તુતિ કરી જે માત એ શિશુ રૂપે કૃષ્ણ સુણી બોલ્યા સાક્ષાત માતા ચિંતા મા કરો થાશે તમારું ધાર્યું જે રજની વાત સંભાળવા મેં રૂપ દેખાડ્યું તે એમ કહી અર્ભકના કર્યા ચરિત્ર દીન દયાળ અલૌકિક રૂપ ગોપ્ય કરીને બાલ બન્યા તત્કાળ ધર્મને ધીરજ આવી દેખી એવા દિવ્ય બાળ જાણ્યું સંકટ સર્વે ગયા થયો અસુરનો કાળ જાણીને આનંદ પામ્યારે દેખી બાળકને દુખવામ્યારે થયો સર્વે સુખનો સમાજ રે જાણ્યું ગયું અધર્મનું રાજ રે કરે મહોત્સવ ઘેર ઘેર રે થઈ રહી લીલા લે તેમ અમર લોકે અમર રે કરે મોટા ઉત્સવ મુદ ભરે બોલે જય જય બ્રહ્મા બ્રહ્માણી રે શક્ર શચી શિવ શિવા રાણી રે બોલે જય જય શબ્દ અમર રે કરે પુષ્પવૃષ્ટિ પુરંદર રે ગાય ગાંધર્વ નાચે અપસરા રે સિદ્ધ ચારણને મુનિવરા રે દેવે વજાડ્યા દુદુંભી બહુ રે નભે આનંદ પામ્યા સભુરે મંદ શીતળ સુગંધી વાયુ રે વાય સર્વે જન સુખદાય રે થયા પૂરું તે નભે અમળ રે બોલે વ્યોમમાં જે સકળ રે મોટા ઋષિ દિયે છે આશીષ રે પ્રભુ જીવ જો ક્રોડ્ય વરસ રે એમ હરખ્યા દેવ ઋષિ રાય રે જાણી પ્રભુ પ્રકટ મન માય રે બહુ વાજિંત્ર વાજે છે વ્યોમે રે તેમ આય છે ઉત્સવ ભમે રે જેમ ગેહ કિરાયો છે ગગન રે તેમ ભૂમિએ જન્મ ગન રે ભુવા નીર ધૂમ હુતાશન રે થયા સાધુના નિર્મળ મન રે શાંતિ દયાદિ દ્વાદશ નારી રે આવી દર્શને દિવ્ય દેહ ધારી રે પછી નગર નારી આવી સહુ રે લાવી માંગલિક સાજ બહુ રે સુવર્ણ થાળ ભર્યા સગ્ય મોતી રે આવી વધાવવા પુણ્યવતી રે કાજુ કુમકુમ કેસર ઉતારી રે શ્રીફળ અક્ષત સારી સોપારી રે પાન બીડાલ વિંગએ લચી રે દધી હળદી શરીરમાં ચર્ચી રે अति हर्ष भरे मन माय रे आवी गाती मंगल वधाई रे वधावी ने लिए छे वारणा रे निर्खी मन हर क्या नारी तनारे निर्खी कृतन थाय लोचन रे वालू लागे वाला नुवदन रे पछे भामणा लई भामिनी रे बोले आशीर्वचन कामिनी रे बालक तमे जीवो बहु फाल रे करो माँ बापनी प्रतिपाल रे दिए आशीष निरखे मुख रे लिए अंतरे अलौकिक सुख रे आस विलासे मुख छे सारू रे नैन कर चरण अति चारू रे वेश मूर्ति ते मंगल थारी रे करो मंगल अमारु मोरारी रे एम कही नारी गई घेर रे राखी बाल रुदे रूढ़ी फेर रे बाल शर्मा न सूत ये दान रे पाम्या अतिशय आनंद मन रे वाजे वधाई न बच्चू जड़े रे मोटा दुदुम्भी न गारा गड़े रे भैर भूंगला ने शरणाई रे गाय गायक मंगल वधाई रे सुनी स्तुति गान तेह तनु रे थया धर्म मगन मने धनु रे पछी ते समाने विषय धर्म रे करू वेदोक्त जातक कर्म रे पछी आप्या छे विप्रने धान रे करी अति घणु सनमान रे अन धन अवानियम गर रे गज बाजन गव सुंदर रे मंगावी छे महिषी दुजणी रे आपी विप्रने ते वरी घणी रे घृत पात्र वस्त्र आप्या गेह रे आप्यू जे जे माग्यू तेने ते हरे दीधा धर्मे दान बहु पेर रे करी राजी वाला विज घेर थया राजी सहो नर नार रे बांध्या करिया तोरण भार रे माता पिता भूली दिव्य भाव रे जाण्या पुत्र ने सहज स्वभाव रे मनुष्य जानी माता तात तेह रे लादा लड़ावे सूत ने स्नेह रे वली धर्म देव प्रेमवती रे भूल्या पूर्वना जन्म नि स्मृति रे काई जाने न जाने पोताने रे एम वर्ते तात माताने रे थई सर्वे सुख नि संपत्ति रे प्रभु प्रकटे गई विपत्ति रे सत्यवादी जन पान्या सुख रे थयो दैत असुर ने दुख रे हो कौल नास्तिक कूड कबीर रे ते तो पामिया दुख अचीर रे बेजा असुर अवनिये हता रे जे कोई अहोनिश द्वेष करता रे तेनु नर सुधावा निरधार रे ठाय अवला सुकन अपार रे थरके डाबा अंगा डाबा नेण रे लाधे घुंडा स्वप्न दुख धेण रे जाने धड़ ऊपर शीश नथी रे उंटे बेसारी का जा आही थी रे लई जाय छे दक्षिण देश रे एवा सोना लाधे छे हमेश रे हो घर सामा आवी रुवे स्वान रे राते रुवे सुर भी निदान रे घर पर करे ले कागड़ा रे बोले बपोरे बहु फिया वड़ा रे घुड़ भोला घुघवे अपार रे थाय शब्द भोंडा भयंकार रे गिध गरजु समरा समीत रे उड़े घर पर शकरा नीच रे गली अशुभ आकाश माय रे नित्य दैत्य ने चित जनाय रे जानु रवि शशि हताव्यो मेरे पड़ा उडु सहित ते भूमे रे इवा अवला शुकन जानी रे बोलो असुर नो गुरुवाणी रे सुनो दैत्य कहे काली दत्त रे कहियो देवी ते थयु सत्य रे असुर नो करवा संहार रे निश्चय थयो हरि अवतार रे माटे आपने उपाय करिए रे आव्या मृत्यु माथी तो उगरिए रे हमना हरि हसे बाल नानो रे मारो एने करी कल छानो रे मेलो कृत्यावो करी अपार रे करे करत हरि नो संहार रे पछी करो छे मंत्र नो जाप रे उपजावी छे कृत्यावो आप रे अति कालियो ने छूटे केश रे करो सिंधूर नो लेप शीश रे छे देल छे नाशी काने कान रे अति विरूप वर वेवान रे लांबा होठ ने फाड़ा छे मुख रे काढ़ी जीभ दात देवा दुख रे लांबा पेट ने लोचन लाल रे खरड़ा रुधिर माही बेगाल रे मानस नी खोपरियो छे कर रे नागी यून थी पैरा वस्तर रे उगा मिल आयुध छे हाथ रे एवो कीधो कृत्यावो नो साथ रे तेने आज्ञा आपी असुरे रे कहियो शत्रु छे छपये पूरे रे तेनो कर जो तमे जई नाश रे करी काम आवो हम पास रे पछे कृत्यावो त्याथी उडियू रे भूखी भमराळीयू भूंडियू रे आवीयू हरि प्रसाद ढेर रे जेने बालक साथे छे वेर रे हरि हता माता जीने पास रे लिथा जोरे करवाने नाश रे कहे मारो मारो खाओ खाओ रे शत्रु मलो म भूल शोधाओ रे फाड़ा मुख उगाम्या युध रे हरि ଉପାୟ କରି ବହୁ କ୍ରୋଧରେ ଜାଲି ଗଲେ ଲଇ ଗୟୋ ବାରରେ ରୁବେ ଜନନୀ କରି ପୋକାରରେ ଭୁଲେ ନିଜ ଶରୀର ସମ୍ଭାରରେ ଭୟେ ଢଳି ପଡ଼ା ତତକାଳରେ ମାଗେ ବାଳକ କରେ ପୋକାରରେ ଜୋଇ ପରବଶ ପ୍ରାଣ ଆଧାରରେ ଶୁଣି ବାଲା ନ କାୟର ସାଦରେ ତିଆଁ ଆୟା ହରି ପ୍ରସାଦରେ ହତା ଏକାଦଶୀ ନେ ଜାଗରଣରେ ତ୍ୟାଥି ଆବିଆ ଘେର ଆପଣରେ ଆବି ଜୋୟୁ ତ୍ୟାନ ଲିଖା ବାଳରେ ପାମ୍ୟା ଧର୍ମ ମୁର ଛାତେ ଥାଳରେ ଶୁଣି ଭକ୍ତି ଧର୍ମ ନିଲାପରେ ଆଜ୍ଞା ହନୁମାନ ତ୍ୟାପରେ କହେ କେମରୁ ଅଛ ଦମ୍ପତିରେ କହୋ ତାଲୁ ତମାରି ବିପତିରେ କହେ ଭକ୍ତି ବୀର ସୁତ ମାରରେ ତେନେ ଲଇ ଗୟ କୃତ୍ୟାଓ ଭାରରେ ଏନେ ମାରି ନା ଖସେ ଏ ତର୍ତ୍ତରେ ମୁକା ଓଜ ତମେ ହସମର୍ଥରେ ଏଉ ଶୁଣି ବୋଲା ହନୁମନ୍ତରେ ବାଳା ଚିନ୍ତା ମ କର ଶୋଚିତରେ ହମଣା ଲାବିଷ ପୁତ୍ର ତମାରରେ ତମେ ଶ୍ରୀକୃଷ୍ଣ ଦେବ ସମାରରେ ତମେ କରୁ ପ୍ରୀତେ ବ୍ରତ ମାରୁରେ ରହେବା ନହିଁ ଦବୁ କଷ୍ଟ ତମାରୁରେ ପଛେ ହନୁମାନ ତେ ହାଳରେ ଚାଲା ମୁକାବାଏ ହାଳରେ ତ୍ୟାଥୋ କୃତ୍ୟାଓ ନା କର ମାୟରେ ଲାଗ୍ୟା ବାଳକ ସମର୍ଥ ତ୍ୟାଇରେ ଜୟୋ ବାକି ଦୃଷ୍ଟି କରି ଭାଳେରେ ବଳି କୃତ୍ୟାଓ ତେ ତତକାଳେରେ ପଛି ନାଖ୍ୟା ଅବନୀ ଉପରେ ମାରୋ ମାରୋ କହେ ବହୁ ପେରେ ଖ୍ୟାତ ଆଜ୍ଞା ହନୁମାନ କର୍ତ୍ତରେ ଜୋୟୁ ଦୁଷ୍ଟ କୃତ୍ୟାନୁ କୃତ୍ୟରେ ଅଞ୍ଜନୀ ସୁତ କହେ ଉଭିରେ ଜୋରେ କୃତ୍ୟ ତମାରାନୁ ଫଳ ନିଜରେ ଆଜ ନରହୋ ଜୀବତି କୋଇରେ ନିଶ୍ଚେ ଜାଣ ଯୋ ମନ ମାସୋଇରେ ଏମ କହିନେ ଜଟିଏ ଜାଲିରେ ମାରି ଉଠିନେ ପୃଥିବୀ ମା ଘାଲିରେ ତ୍ୟାରେ କୃତ୍ୟାବ କହେ କର ଯୋଡ଼ିରେ ମେଲ ବୀର କର୍ୟା ଗୁନା କୋଡ଼ିରେ ଆଜ ପଛି ନ ଲଉ ଏନୁ ନାମରେ ପାଛି ଆଉ ନାହିଁ ଆଣେ ଠାମରେ ଆଜ ମେଲ କହୋ ପାଉ ଲାଗିରେ ନାଉ ନଜରେ ଯାଉ ଦୂର ଭାଗିରେ ଏମ କହିନେ କୃତ୍ୟାଓ ନାଠିରେ ଜାଣି ଅସୁରନୀ ଦଶା ମାଠିରେ ଜୟ କହୁ କାଲେ ଦତ ପାସରେ ନା ଥାୟେ ବାଳକ ନାଶରେ ଏତ ଛେ କୋଇ ଅତି ସମର୍ଥରେ ଏଥି ଥାସେ ଅସୁରନୁ ମୃତ୍ୟରେ ପଛେ ମହାବୀର ବାଳ ନେ ଲଇରେ ଭକ୍ତି ଧର୍ମ ନେ ପାସର ଜୟରେ ଆପ୍ୟା ଭକ୍ତି ନା ହାତ ମା ବାଳରେ ଥୟା ରାଜି ଦମ୍ପତି ତେ କାଳରେ कहे भक्ति सुनो हनुमान रे, नौती सुतनी आशा निदान रे। प्यारे हनुमान कहे भक्ति रे, सुत तमारो समर्थ तीरे, नथी प्राकृत नर निदान रे, एछे पोते स्वयं भगवान रे। अक्षर गोलोक धाम ना धामी रे, एछे कृष्ण देव बहु नामी रे। धर्म रक्षा जीवन कल्याण रे, आव्या करवा श्याम सुजान रे। तमे धर्म भक्ति छो दंपति रे, करशे पुष्ट तमने ए अति रे। ज्ञान वैराग्य आदि जे कहिए रे, वंश तमारो पवित्र लइए रे। ओ तेने वधार शे के हबाल रे, करशे असुर जननो काल रे। मारो महिमा अति वधार शे रे, शरणागत ना काज सुधार शे रे। माते आ बाल छे अलौकिक रे, करो हेत पर हरो भी करे। एम कहयु हनुमाने जारे रे, जोयू बाल के सामु त्यारे रे। पछी हरि तनी इच्छा जोई रे, थया हनुमान अदृश्य सोई रे। तेजोई प्रेमवती पावन रे, अति आश्चर्य पामिया मन रे। वली जायू बालक आवार रे, आव्यो निश्चय नवे अवतार रे। कही वात ये लोक सहुने रे, जीवो बालक कोईक पुण्ये रे। पछी नर नारी ये नियम धार्यू रे, हनुमान शू हे तव धार्यू रे। जेथी तलु कृत्यावनु विघ्न रे, सहु कहवा लाग्या धन्य धन्य रे।
इति श्रीमदेकांतिक धर्म प्रवर्तक श्री सहजानंद स्वामी शिष्य निष्कुलानंद मुनि विरचिते भक्त चिंतामणि मध्ये कृत्या विघ्न नामे 70वां प्रकरणम्।